शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषं पराशरात्मजं वन्दे शुकतातं तपोनिधिं व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः श्रुतिस्मृतिपुराणानामालयं करुणालयं नमामि भगवत्पादशङ्करं लोकशङ्करम् अवतीर्णश्च कालट्यां केदारेऽन्तर्हितश्च यः चतुष्पीठप्रतिष्ठाता जयताच्छङ्करो गुरुः गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः अज्ञानाञ्जाह्नवीतीर्थं विद्यातीर्थं विवेकिनां सर्वेषां सुखदं तीर्थं भारतीतीर्थमाश्रये विद्याविनयसम्पन्नं वीतरागं विवेकिनं वन्दे वेदान्ततत्त्वज्ञं विधुशेखरभारतीं सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् नमस्ते शारदे देवि काश्मीरपुरवासिनि त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमं शिवमार्गप्रणेतारं प्रणतोऽस्मि सदाशिवं शिवाय विष्णुरूपाय शिवरूपाय विष्णवे शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः हरशम्भो महादेव विश्वेशामरवल्लभ शिवशङ्कर सर्वात्मन् नीलकण्ठ नमोऽस्तु ते वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् अथ श्रीशिवसहस्रनामस्तोत्रम् वासुदेव उवाच ततः सप्रयतो भूत्वा मम तात युधिष्ठिर प्राञ्जलिः प्राह विप्रर्षिर्नाम सङ्ग्रहमादितः उपमन्युरुवाच ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तं सनातनं वक्ष्ये यदुकुलश्रेष्ठशृणुष्वावहितो मम वरयैनं भवं देवं भक्तस्त्वं परमेश्वरं तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् न शक्यं विस्तरात् कृत्स्नं वक्तुं सर्वस्य केनचित् युक्तेनापि विभूतीनामपि वर्षशतैरपि यस्यादिर्मध्यमन्तञ्च सुरैरपि न गम्यते कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव किन्तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः अप्राप्य तु ततोऽनुज्ञां न शक्यस्तोतुमीश्वरः यदा तेनाभ्यनुज्ञातस्तुतो वै स तदा मया अनादिनिधनस्याहं जगद्योनेर्महात्मनः नाम्नां कञ्चित् समुद्देशं वक्ष्याम्यव्यक्तयोनिनः वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः शृणु नाम्नां च यं कृष्ण यदुक्तं पद्मयोनिना दशनामसहस्राणि यान्याह प्रपितामहः तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् गिरेसारं यथा हेम पुष्पसारं यथा मधु घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् सर्वपापापहमिदं चतुर्वेदसमन्वितम् प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च नाश्रद्दधानरूपाय नास्तिकायाजितात्मने यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् सकृष्णनरकं याति सह पूर्वैः सहात्मजैः इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमाङ्गतिम् पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम् इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् तदा प्रभृति चैवायमीश्वरस्य महात्मनः स्तवराज इति ख्यातो जगत्यमरपूजितः ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः यतस्तण्डिः पुरा प्राप तेन तण्डीकृतोऽभवत् स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं निगदिष्ये महाबाहोस्तवानामुत्तमं स्तवम् ब्रह्मणामपि यद्ब्रह्मपराणामपि यत्परम् तेजसामपि यत्तेजस्तपसामपि यत्तपः शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः दान्तानामपि यो दान्तो धीमतामपि या च धीः देवानामपि यो देवऋषीणामपि यस्त्वृषिः यज्ञानामपि यो यज्ञशिवानामपि यः शिवः रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि योगिनामपि यो योगी कारणानां च कारणम् यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः सर्वभूतात्मभूतस्य हरस्यामित तेजसः अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे शृणु यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ध्यानम् ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानम् विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् श्रीसाम्ब सदाशिवाय नमः स्थिरस्थाणुः प्रभुर्भीमः प्रवरो वरदोवरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः श्मशानवासी भगवान् खचरोगोचरोर्दनः अभिवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्तवेश प्रच्छन्नः सर्वलोक प्रजापतिः महारूपो महाकायो वृषरूपो महायशः महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः पवित्रं च महांश्चैव नियमो नियमाश्रितः सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः चन्द्रसूर्यश्च निःकेतुर्ग्रहो ग्रहपतिर्वरः अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणो नघः महातपा घोरतपा अदीनो दीनसाधकः संवत्सरकरो मन्त्रः प्रमाणं परमन्तपः योगी योज्यो महाबीजो महारेता महाबलः सुवर्णरेता सर्वज्ञः सुबीजो बीजवाहनः दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः विश्वरूपस्वयं श्रेष्ठो बलवीरो बलोगणः गणकर्ता गणपतिर्दिग्वासाः कामयेव च मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः कमण्डलुधरो धन्वी बाणहस्तः कपालवान् अशनीशतघ्नी खड्गी पट्टिशी चायुधी महान् स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्थलः त्रिजटीचीरवासाश्च रुद्रसेनापतिर्विभुः अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः गजः दैत्यः कालो लोकधाता गुणाकरः सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः कालयोगी महानादः सर्वकामश्चतुष्पथः निशाचरः प्रेतचारी भूतचारी महेश्वरः बहुभूतो बहुधरः स्वर्भानुरमितो गतिः नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः घोरो महातपाः पाशो नित्यो गिरिरुहो नभः सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः अधर्षणो धर्षणात्मा यज्ञः कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा तेजोपहारी बलः मुदितोऽर्थोजितो वरः गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः न्यग्रोधरूपोऽन्यग्रोधो वृक्षकर्णस्थितिर्विभुः सुतीक्ष्णदशनश्चैव महाकायो महाननः विश्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः हुताशनसहायश्च प्रशान्तात्मा हुताशनः उग्रतेजा महातेजा जन्यो विजयकालवित् ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली वेणवीपणवीताली खली कालकटङ्कटः नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोगमः प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः विमोचनः सुशरणो हिरण्यकवचोद्भवः मेढ्रजोवलचारी च महीचारी श्रुतस्तथा सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः व्यालरूपो गुहावासी गुहो मालीतरङ्गवित् त्रिदशस्त्रिकालधृत्कर्म सर्वबन्धविमोचनः बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः प्रस्कन्दनो विभागज्ञो तुल्यो यज्ञविभागवित् सर्ववासः सर्वचारी दुर्वासावासवोमरः हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः मुख्यो मुख्यश्च देहश्च काहलिः सर्वकामदः सर्वकालप्रसादश्च सुबलोबलरूपधृत् सर्वकामवरश्चैव सर्वदः सर्वतोमुखः आकाशनिर्विरूपश्च निपाती ह्यवशः खगः रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसी वसुवेगो महावेगो मनोवेगो निशाचरः सर्ववासी श्रियावासी उपदेशकरोकरः मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः महासेनो विशाखश्च षष्टिभागो गवाम्पतिः वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ईशान ईश्वरः कालो निशाचारी पिनाकवान् निमित्तस्थो निमित्तञ्च नन्दिर्नन्दिकरो हरिः नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः भगहारी निहन्ता च कालो ब्रह्मा पितामहः चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः इतिहासः सकल्पश्च गौतमोऽथ निशाकरः दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः अक्षरं परमं ब्रह्म बलवाञ्छक्र एव च नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् वेदकारो मन्त्रकर्ता विद्वान् समरमर्दनः महामेघनिवासी च महाघोरो वशीकरः अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः स्वस्तिदस्वस्ति भावश्च भागी भागकरो लघुः उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनां महापादो महाहस्तो महाकायो महायशाः महामूर्धा महामात्रो महानेत्रो निशालयः महान्तको महाकर्णो महोष्ठश्च महाहनुः महानासो महाकम्बुर्महाग्रीवश्मशानभाक् महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः लम्बनोलम्बितोष्ठश्च महामायः पयोनिधिः महादन्तो महादंष्ट्रो महाजिह्वो महामुखः महानखो महारोमा महाकेशो महाजटः प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः स्नेहनो स्नेहनश्चैव अजितश्च महामुनिः वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः गण्डलीमेरुधामा च देवाधिपतिरेव च अथर्वशीर्षः सामास्य ऋक्सहस्रामिते क्षणः यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः नाभिर्नन्दिकरो भावः पुष्करस्थपतिस्थिरः द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तङ्कलिश्च कालश्च मकरः कालपूजितः सगणो गणकारश्च भूतवाहनसारथिः भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः कपिलः कपिशः शुक्ल आयुश्चैव परोपरः गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः परश्वधायुधो देव अनुकारी सुबान्धवः तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलो नलः बन्धनो बन्धकर्ता च सुबन्धनविमोचनः स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः बहुधा निन्दितः शर्वः शङ्करः शङ्करोधनः अमरेशो महादेवो विश्वदेवः सुरारिः अहिर्बुध्न्योनिलाभश्च चेकितानो हविस्तथा अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः धन्वन्तरिर्धूमकेतुस्कन्दो वैश्रवणस्तथा धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवोधरः प्रभावः सर्वगोवायुरर्यमासवितारविः उषङ्गुश्च विधाता च मान्धाता भूतभावनः विभुर्वर्णविभावी च सर्वकामगुणावहः पद्मनाभो महागर्भश्चन्द्रवक्त्रो नीलो नलः बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् कैलासगिरिवासी च हिमवद्गिरिसंश्रयः कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः सारग्रीवो महाजत्रुरलोलश्च महौषधः सिद्धार्थकारी सिद्धार्थश्छन्दो व्याकरणोत्तरः सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः सारङ्गो नवचक्राङ्गः केतुमाली सभावनः भूतालयो भूतपतिरहोरात्रमनिन्दितः वाहिता सर्वभूतानां निलयश्च विभुर्भवः अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः महागीतो महानृत्यो ह्यप्सरो गणसेवितः महाकेतुर्महाधातुर्नैकसानुचरश्चलः आवेदनीय आदेशः सर्वगन्धसुखावहः तोरणस्तारणो वातः परिधीपतिखेचरः संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः नित्य आत्मसहायश्च देवासुरपतिः पतिः युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः अक्षश्च रथयोगी च सर्वयोगी महाबलः समाम्नायो समाम्नायस्तीर्थदेवो महारथः निर्जीवो जीवनो मन्त्रशुभाक्षो बहुकर्कशः रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः आरोहणोऽधिरोहश्च शीलधारी महायशः सेनाकल्पो महाकल्पो योगो युगकरो हरिः युगरूपो महारूपो महानागहनो वधः न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः बहुमालो महामालः शशीहरसुलोचनः विस्तारो लवणः कूपस्त्रियुगः सफलोदयः त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः निवेदनः सुखाजातः सुगन्धारो महाधनुः गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् मन्थानो बहुलो वायुः सकलः सर्वलोचनः तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ब्रह्मदण्डविनिर्माता शतघ्नीपाशक्तिमान् पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः अनन्तरूपो नैकात्मा तिग्मतेजा स्वयम्भुवः ऊर्ध्वगात्मा पशुपतिर्वातरम्हा मनोजवः चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् उमापतिरुमाकान्तो जाह्नवी धृदुमाधवः वरो वराहो वरदो वरेण्यः सुमहास्वनः महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः कलाः काष्ठालवा मात्रा मुहूर्ताः क्षपाः क्षणाः विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः सदसद्व्यक्तमव्यक्तं पिता माता पितामहः स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परागतिः देवासुरविनिर्माता देवासुरपरायणः देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरगणाश्रयः देवासुरगणाध्यक्षो देवासुरगणाग्रणीः देवातिदेवो देवर्षिर्देवासुरवरप्रदः देवासुरेश्वरो विश्वो देवासुरमहेश्वरः सर्वदेवमयो चिन्त्यो देवतात्मात्मसंभवः उद्भित्रिविक्रमो वैद्यो विरजो नीरजोमरः ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः सुयुक्तशोभनो वज्री प्रासानां प्रभवो व्ययः गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः अभिरामः सुरगणो विरामः सर्वसाधनः ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः व्रताधिपः परं ब्रह्मभक्तानां परमागतिः विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् श्रीसाम्ब सदाशिवाय नमः यथा प्रधानं भगवानिति भक्त्यास्तुतो मया यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः स्तोतव्यमर्च्यं वन्द्यं च कस्तोष्यति जगत्पतिं भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः शिवमेभिस्तु वन्देवं नामभिः पुष्टिवर्धनैः नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् स्तूयमानो महादेवस्तुष्यते नियतात्मभिः भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः तथैव च मनुष्येषु ये मनुष्याः प्रधानतः आस्तिकाश्रद्दधानाश्च बहुभिर्जन्मभिस्तवैः भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् कर्मणा मनसा वाचा भावेनामिततेजसः शयानाजाग्रमाणाश्च व्रजन्नुपविशंस्तथा उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः शृण्वन्तश्रावयन्तश्च कथयन्तश्च ते भवम् स्तुवन्तस्तूयमानाश्च तुष्यन्ति च रमन्ति च जन्मकोटिसहस्रेषु नानासंसारयोनिषु जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणां येन यान्ति परां सिद्धिं तद्भागवतचेतसः ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् प्रपन्नवत्सलो देवः संसारात्तान् समुद्धरेत् एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः कृत्तिवासास्तुतः कृष्णतण्डिना शुभबुद्धिना स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् गीयते च स बुद्ध्येत ब्रह्मा शंकरसन्निधौ इदं पुण्यं पवित्रं च सर्वदा पापनाशनं योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा एवमेतत् पठन्ते य एकभक्त्या तु शंकरं यागतिः सांख्ययोगानां व्रजन्त्येतां गतिं तदा स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ अब्दमेकं चरेद् भक्तः प्राप्नुयादीप्सितं फलम् एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः वैवस्वताय मनवे गौतमः प्राह माधव नारायणाय साध्याय समाधिष्ठाय धीमते यमाय प्राह भगवान् साध्यो नारायणोच्युतः नाचिकेताय भगवानाह वैवस्वतो यमः मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन तवाप्यहममित्रघ्नस्तवं दद्यां ह्यविश्रुतम् स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः पिशाचाया तु धाना वा गुह्यका भुजगा अपि यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः अभग्नयोगो वर्षन्तु सोऽश्वमेधफलं लभेत् इति श्रीमन्महाभारते आनुशासनिकपर्वान्तर्गते दानधर्मपर्वणि श्रीशिवसहस्रनामस्तोत्रम् कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि करचरणकृतं वाक् कायजं कर्मजं वा श्रवणनयनजं वा मानसं वा पराधं विदितमविदितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्री महादेव शंभो।